इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीतत्रिपाठी। अथ वार्ताः। राष्ट्रपति द्रौपदी मुर्मुः अद्य मुंबईनगरे भारतीय रिजर्व बैंकेत्यस्य 90 वर्षाणां सम्पूर्त्यवसरे समापन समारोहे भागं भजिष्यति। भारतीय रिजर्व बैंक इत्यनेन स्वस्य आधिकारिक सामाजिकान्तर्जालीय पटले संसूचितं यत् अस्मिन् अवसरे केन्द्रीय मंत्री ज्योतिरादित्य सिंधिया, महाराष्ट्रस्य मुख्यमंत्री देवेन्द्र फडणवीसः च सम्मिलित भविष्यन्ति। अवसरेस्मिन् स्वागत भाषणं आरबीआई राज्यपालः संजय मल्होत्रा प्रदास्यति। राष्ट्रपति मुर्मुः गतसायं मुंबई नगरं संप्राप्तवती। महाराष्ट्रस्य राज्यपालः सीपी राधाकृष्णन, उपमुख्यमंत्री एकनाथ शिंदे च तस्याः स्वागतं कृतवन्तौ। ऑपरेशन ब्रह्मा इत्यस्यान्तर्गतं म्यांमार देशस्य यांगून नगरे ह्यः आईएनएस सतपुरा, आईएनएस सावित्री इत्येताभ्यां द्वारा 50 टनमितं यावत् मानवीय सहायताः, आपत्मोचन सामग्र्यः च समर्पिताः। उद्धार सामग्र्यः म्यांमार देशे भारतस्य राजदूतेन अभय ठाकुरेण प्रदत्तः। अद्यारभ्य चिली देशस्य राष्ट्रपतिः ग्रेवियल बोरिक फांट भारतस्य 5 दिवसीय यात्रायां भविष्यति। तेन सह उच्चस्तरीयः प्रतिनिधिमण्डलः अपि भविष्यति, यस्मिन् मन्त्रिणः, संसत्सदस्याः, भारत चिली सांस्कृतिक संयोजने सम्बद्धाः प्रमुखाः चिलीदेशवासिनः च सन्ति। राष्ट्रपतित्वेन राष्ट्रपति बोरिच इत्यस्य भारतस्य प्रथमा यात्रा भविष्यति। अस्मिन् भ्रमणकाले राष्ट्रपतिः बोरिच अद्य अपराह्णे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह वार्तां करिष्यति, यत्र भारत चिली सम्बन्धेषु चर्चा भविष्यति। सः राष्ट्रपति पदासीनया द्रौपदी मुर्मू वर्यया सहापि मेलनं करिष्यति। सा तस्य सम्माने भोजनस्य आयोजनं करिष्यति। राष्ट्रपति बोरिच अप्रैल मासस्य 5मे दिनांके चिलीदेशं गमनात् पूर्वं मुंबई बेंगलुरु आगरायाः च भ्रमणं करिष्यति। भारतस्य ऋतुविज्ञान विभागेन आईएमडी इत्यनेन अस्मिन् वर्षे अप्रैल मासात् जून मासं यावत् देशस्य अधिकांश भागेषु सामान्यतः अधिक तापमानस्य पूर्वानुमानं कृतम्। परञ्च प्रायद्वीपीय भारतस्य केषुचित् भागेषु तापमानं सामान्यतः न्यूनमेव भवितुं शक्यते। एतेषु दक्षिण महाराष्ट्र, केरल, कर्णाटक, ओडिशा, पश्चिमबंग, जम्मू कश्मीराणां च क्षेत्राणि सन्ति। आभासीय माध्यमेन एकस्मिन् सम्मेलने ऋतुविभागस्य महानिदेशकः मृत्युंजय महापात्रा अवदत् यत् अस्मिन् काले अधिकांश क्षेत्रेषु न्यूनतमं तापमानमपि सामान्यतः उपरि भविष्यति। 25अधिकद्विसहस्रतमवर्षस्य ओडिशा दिवस समारोहस्य आयोजनं नवदिल्ल्याः जवाहरलाल नेहरू क्रीडांगणे अद्य भविष्यति। एषः समारोहः राज्यस्थापना दिवसस्य स्मरणार्थं तस्य च संस्थापकेभ्यः तेषां राज्यनिर्माणे अमूल्य योगदानाय आमान्यते। समारोहस्य विषयः अस्ति कला, संस्कृतिः, रिक्थं, पर्यटनं च। ओडिशा सर्वकारस्य नवदिल्ल्यां प्रधान निवासी आयुक्तः विशाल गगनः अवदत् यत् समारोहे राज्यस्य समृद्ध संस्कृति, रिक्थ परम्पराः च प्रदर्शयिष्यन्ते। सः सूचितवान् यत् अस्मिन् कार्यक्रमे 2000तोप्यधिकाः जनाः भागं भजिष्यन्ति। आईपीएल इत्यस्यां क्रिकेट स्पर्धा मालिकायां गतसायं मुंबय्याः वानखेड़े क्रीडांगणे मुंबई इंडियंस दलेन कोलकाता नाइट राइडर्स दलं 8 स्तोभैः पराजितम् इति वार्ताः।